एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। अद्य माघमासस्य प्रथम दिवसे मकर संक्रान्ति पर्व स्नानदानादि कार्याणि सम्पाद्य देशव्यापी रूपेण समायोज्यते। सूर्यः अस्मिन्नेव दिवसे धनुर्राशिर् मकर राशिं प्रविशति इत्यतः पर्वेदं मकर संक्रान्ति नाम्ना प्रसिद्धमस्ति। सौरमानानुसारेण रविः अस्माद् दिनात् मासषड्कं यावद् उत्तरायणे तिष्ठति। उत्तरायणं हि यज्ञदान पूजादि शुभकर्मणां कालः इत्यतोऽपि उत्तरायणस्य प्रथम दिनत्वात् अस्य महत्वमस्ति। दिनेऽस्मिन् श्रद्धालवो भक्तजनाः ब्रह्म मुहूर्तादेव नदी कुण्ड ह्रद त्रिवेण्यादि जलाशयेषु स्नानदानार्थं संलग्नाः सन्ति। माघ संक्रान्त्यां विशेषतो देवघाट वराहक्षेत्र रीडी कनकाईस्थलेषु विपुलाः मेलाः आयोजिताः सन्ति। अस्मिन् वर्षे विशेषतो देवघाट स्थाने देवघाट महोत्सवः समायोजितो वर्तते। देवघाट त्रिवेणी वराहक्षेत्रेषु स्नानाय प्रतिवेशी राष्ट्रात् भारतादपि विपुलमात्रायां जनसमवायाः सम्प्राप्ताः वर्तन्ते। पर्वेदं कतिपयैः समुदायैः माघी पर्व नाम्ना सविशेषं हर्षोल्लासपूर्वकं समायोज्यते। अस्मिन्नेव दिने थारू समुदायेन नववर्षत्वेन स्वागतं कुर्वता माघपर्वणः समायोजनं विहितमस्ति। विशेषतो दाङ बाँके बर्दिया कैलाली कञ्चनपुर प्रभृतिषु थारू बाहुल्येषु जनपदेषु मकर संक्रान्तितः आरभ्य पञ्चदिवसान् यावत् माघ पर्व समायोज्यते। माघ पर्वणः अवसरे कृषरः घृतं तिलकमोदकानि कन्दमूलानि च भुज्यन्ते। मकर संक्रान्तेः माघ पर्वणस्य अवसरे राष्ट्रपतिना रामचन्द्र पौडेलेन शुभकामना सन्देशं प्रदाय अनेन पर्वणा अस्माकं समाजे विभिन्नानां जातीनां मध्ये परस्परं मेलनम् अभिवर्ध्य सामाजिकीम् एकतां सुदृढीकर्तुं सहायता प्रदीयते इति विश्वासः व्यक्तोऽस्ति। अत्रान्तरे अद्यतः भारतस्य उत्तर प्रदेश राज्यस्य प्रयागराज तीर्थक्षेत्रे प्रयागराज महाकुम्भ मेला पर्व प्रारभमाणम् अवर्तते। मेलेयम् आविश्व महत् धार्मिक मेला वर्तते। भारत सर्वकारेण सार्ध मासिक काल पर्यन्तं सञ्चल्यमानायाम् अस्यां मेलायां विश्वस्य विभिन्न स्थानेभ्य आसन्न 50 कोटीनां श्रद्धालु भक्तजनानां सहभागिता भविष्यति इति अनुमितं वर्तते। स्वस्थ समाजस्य समृद्ध नेपालस्य विश्वशान्तये कृते च योगः इति मूलसमाघोषेण सह अद्य दशम राष्ट्रिय योग दिवसः आराष्ट्रं विभिन्नान् कार्यक्रमान् आयोज्य समाद्रीयते। नेपाल सर्वकारेण द्वासप्तत्युत्तर 2000 वैक्रमादस्य श्रावण मासस्य 28 दिवसे प्रतिवर्षं माघ मासस्य प्रथम दिवसः राष्ट्रिय योग दिवसत्वेन उद्घुष्टः आसीत्। तस्मादेव दिवसात् प्रतिवर्षं योग दिवसः समाद्रीयते। 37+2000 वैक्रमाब्दात् योगगुरुः डॉ हरिप्रसाद मानसाग्नि इत्यस्य नेतृत्वे योग सम्बद्ध जनैः उत्तरायणस्य प्रथम दिवसः एव योग दिवसः अस्तीति कथयद्भि माघ मासस्य प्रथम दिवसं योग दिवसत्वेन समायोजयितुम् अभियानं प्रारब्धमासीत्। संयुक्त राष्ट्रसंघेन जून मासस्य 21 दिवसः अन्तर्राष्ट्रिय योग दिवसत्वेन समाद्रीयते। राष्ट्रपतिना रामचन्द्र पौडेलेन मन्त्री परिषदः परामर्शेन विभिन्नः चत्वार अध्यादेशः क्रियान्वितः वर्तन्ते। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य अनुसारेण सुशासन प्रवर्धन सार्वजनिक सेवा प्रवाह सम्बद्धान् काञ्चित नेपालाधिनियमान् संशोधयितुं निर्मितः एतद् विक्रम वर्षीयः अध्यादेशः आर्थिक कार्यविधि वित्तीयोत्तरदायित्व सम्बद्धः एतद् विक्रम वर्षीयः प्रथम संशोधनाध्यादेशश्च क्रियान्वितौ स्तः। एवमेव एतद् विक्रम वर्षीयः नैजकरण सम्बद्ध प्रथम संशोधनाध्यादेशः आर्थिक व्यावसायिक वातावरण सुधार निवेशाभिवृद्धि सम्बद्धान् काञ्चित नेपालाधिनियमान् संशोधयितुं निर्मितः एतद् विक्रम वर्षीयः अध्यादेशश्च राष्ट्रपतिना स्वीकृतौ वर्तते। प्रधानमन्त्री केपी शर्मा ओली कस्यचन दलस्य संयोजनस्य विघटनस्य च कार्यम् आत्मना न विधीयते इति स्पष्टयति। नेपाल पत्रकार महासंघस्य नवनिर्वाचितेभ्य पदाधिकारिभ्य ह्य प्रधानमन्त्री निवासे वर्धापनं शुभकामनां च प्रददत् प्रधानमन्त्री ओली राजनीतिक दल विभाजन सम्बद्ध अध्यादेश आनीयमानो वर्तते इत्युक्त्वा मिथ्या भ्रमपूर्णश्च प्रचार प्रसार्यमाणोऽस्तीति उदैरयत्। असौ कस्यापि दलस्य विघटनं संघटनं च तस्यैव दलस्य आन्तरविषयो भवतीति समस्पष्टयत्। विगत समये आत्मनः प्रधानमन्त्रीकाले कस्यापि दलस्य विभाजनस्य अवस्थायां संसदीय दले केन्द्रीय समितौ च प्रतिशतं चत्वारिंशतो मतानाम् आवश्यकता भवतीति संविधानस्य व्यवस्थायाः क्रियान्वयनाय जटिलतायां समागतायां संसदीय दले केन्द्रीय समितौ वा प्रतिशतं चत्वारिंशतो व्यवस्थां विधाय अध्यादेशः आनीतः सन्नपि पश्चात् विरोधस्य अनन्तरम् अध्यादेशः प्रत्यावर्तितः आसीदिति प्रावोचत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति सर्वकारेण आनीतानाम् अध्यादेशानां सुशासनं वैदेशिक निवेशनञ्च अभिवर्धयितुम् आवश्यकता अस्ति। पौषमासस्य षड्विंशे दिवसे उपविष्टस्य मन्त्रिपरिषद उपवेशस्य निर्णयान् सार्वजनिकर्तुं संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने संचार मन्त्री गुरूङ संसदि प्रस्तुते सति तत्कालं तस्य क्रियान्वयनं न सम्भवति, अधिक समयश्च अपेक्ष्यते इत्यतः शीघ्रतायै अध्यादेश आनीत इति समस्पष्टयत्। एवमेव मन्त्रिपरिषद उपवेशेन विश्वकोषात् प्राप्यमाणम् एकाब्जस्य त्रिषष्टेः कोटिनांश रूप्यकाणि अनुदान सौविध्यं स्वीकर्तुं निर्णीतमस्तीति मन्त्री गुरूङ अज्ञापयत्। सर्वकारेण वर्तमानार्थिक वर्षस्य कृते गोधूमस्य न्यूनतम मूल्यं च निर्धारितमस्ति। रेडियो नेपालस्य नेपाल टेलिभिजनस्य च सार्वजनिक सेवा प्रसारणे रूपान्तरणेन सहैव अद्यतः दिनत्रयं यावत् सार्वजनिक सेवा प्रसारण पूर्वारम्भः कार्यक्रमः आयोक्ष्यते। नेपाल टेलिभिजनस्य कार्यप्रकोष्ठात् अद्य उद्घाटनं विषयगत विमर्शनं च विधास्यते। तदनु परश्वः माघ मासस्य तृतीये दिवसे रेडियो नेपालस्य प्राङ्गणे पूर्वारम्भ कार्यक्रमस्य समापन समारोह आयोक्ष्यते। सार्वजनिक सेवा प्रसारण नेपालस्य अध्यक्षः डाक्टर महेन्द्र विष्टः सार्वजनिक प्रसारण संस्थायाः अन्तर्राष्ट्रियाभ्यासः लोकतन्त्रस्य सुदृढीकरणं राष्ट्रनिर्माणं सूचनानां शिक्षायां च सहकार्यं विषयवस्तुनः प्राथमिकता सामाजिकं रूपान्तरणं सार्वजनिक सेवा प्रसारणस्य सञ्चालनं स्थायित्वं प्राविधिक रूपान्तरणं चेत्यादिषु विषयेषु विमर्शनं विधीयते इति अज्ञापयत्। विषयगत विमर्शनात् रेडियो नेपालस्य नेपाल टेलिभिजनस्य च सहजतया रूपान्तरणेन सहैव संस्थायाः अल्पकालिकानां मध्यकालिकानां दीर्घकालिकानां च योजनानां निर्माणाय महत्वपूर्णं मार्गदर्शनं भविष्यति इति अध्यक्षः डाक्टर विष्टः असूचयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन रोगी प्रेषण राष्ट्रिय निर्देशिका प्रकाशिता वर्तते। स्वास्थ्य संस्थासु उपचारार्थं गच्छतां रोगिणां तत्र उपचारासम्भवे तत्कालमेव अपरस्यां स्वास्थ्य संस्थायां सम्प्रेष्य उपचारस्य व्यवस्था करणीयेति निर्देशिकायाम् उल्लिखितं वर्तते।